ओम नमो भगवते वासुदेवाय। अथ द्वाविंशोऽध्यायः। मैत्रेय उवाच, एवमाविष्कृता शेष गुणकर्मोदयो मुनिम् सव्रीड इव तं सम्राडुपारतमुवाचः। मनुरुवाच, ब्रह्मा सृजत्स्वमुखतो युष्मानात्मपरीप्सया छन्दोमयस्तपो विद्यायोगयुक्तान् लम्पटान्, तत्राणाया सृजच्चास्मान् द्वौसहस्रात् सहस्रपात्। हृदयं तस्य हि ब्रह्मक्षत्रमङ्गं प्रचक्षते, अतोऽयन्योन्यमात्मानं ब्रह्मक्षत्रं च रक्षतः। रक्षति स्माव्ययो देवः स यः सदसदात्मकः। तव सन्दर्शनादेव छिन्ना मे सर्वसंशयाः, यत् स्वयं भगवान् प्रीत्या धर्ममाहरिरक्षिषोः। दृष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो कृतात्मनाम्। दृष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्। दृष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान्। अपावृतैकर्णरन्ध्रैर्जुष्टा दृष्ट्यो शतीर्गिरः। स भवान् दुहित्रिस्नेह परिक्लिष्टात्मनो मम, श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने। प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम, अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः। यदा तु भवतः शीलश्रुतरूपवयोगुणान्। अशृणोन्नारदादेशा त्वय्यासीत् कृतनिश्चया, तत्प्रतीच्छद्विजाग्र्ये मां श्रद्धयोपहृतां मया। सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु उद्यतस्य हि कामस्य प्रतिवादो न शस्यते। अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः, य उद्यतमनादृत्य कीनाश्रमभियाचते। क्षीयते तद्यशस्फीतं मानश्चावज्ञया हतः। अहं त्वाशृणवं विद्वन्विवाहार्थं समुद्यतम्, अतस्त्वमुपकुर्वाणः प्रत्यां प्रतिगृहाण मे। ऋषिरुवाच, बाढमुद्वोढु कामोऽहमप्रत्या च तवात्मजा। आवयोरनुरूपोऽसा वाद्यो वैवाहिको विधिः। कामः स भूयान्नरदेवते स्याः पुत्र्या समाम्नाय विधौ प्रतीतः। क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम्। यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम्। विश्वावसुर्न्यपतत्स्वाद्विमानाद्विलोक्य सम्मोहविमूढचेताः तां प्रार्थयन्तीं ललनाललाममसेवितश्रीचरणैर्दृष्टाम्। वत्सां मनोरुच्य पदस्त्वसारं को नानुमन्येत बुधोऽपि याताम्। अतो भजिष्ये समयेन साध्वीं यावत्तेजो बिभ्रियादात्मनो मे। अतो धर्मान् पारमहंस्य मुख्यान् शुक्लप्रोक्तान् बहुमन्ये विहिंस्रान्। यतो भवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते। प्रजापतीनां पतिरेशमय्यं परं प्रमाणं भगवाननन्तः। मैत्रेय उवाच, सौग्रधन्वन्य देवाबभाषे आसीत् चतूष्णीमरविन्दनाभम्। धियोपगृह्णन् स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः। सोऽनुज्ञात्वा व्यवसितं महिष्यादुहितुस्फुटं, तस्मै गुणगणाध्याय ददौ तुल्यां प्रहर्षितः। शतरूपा महाराज्ञी पारिबर्हान् महाधनान्, दम्पत्योः पर्यदात् प्रीत्या भूषावासः परिच्छदान्। प्रत्तान् दुहितरं सम्राट् सदृक्षाय गतव्यथः। उपगूह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः। अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः। आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः। आमन्त्रितं मुनिवरमनुज्ञातः सहानुगः। प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः। उभयोर्ऋषिकुल्याया सरस्वत्या सुरोधसोः। ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः। तमायान्तमभिप्रेत्य ब्रह्मावर्तात् प्रजापतिम्। गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः। बरिस्मती नाम पुरी सर्वसम्पत्समन्विता। न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः। कुशाकाशास्त एवासन् शश्वद्धरितवर्चसः। ऋषयो यै पराभाव्य यज्ञज्ञान् यज्ञमीजिरे। कुशकाशमयं बर्हिरास्तीर्य भगवान् मनुः। अयजद्यज्ञपुरुषं लब्धास्थानं यतो भुवं। बरिस्मतीं नाम विभुर्यां निर्विश्य समावसत्। तस्यां प्रविष्टो भवनं तापत्रय विनाशनं। सभार्यः सप्रजः कामान् बुभुजेऽन्या विरोधतः। सङ्गीयमानसत्कीर्तिः शस्त्रीभिः सुरगायकैः। प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरेः कथाः। निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुं, यदा भ्रंशयितुं भोगानशेकुर्भगवत्परम्। अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः शृण्वतोऽध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः स एवम् स्वान्तरम् निन्ययुगानामेकसप्ततिम् वासुदेवप्रसङ्गेन परिभूतगतित्रयः शारीरा मानसा दिव्या वैयासे ये च मानुषाः भौतिकाश्च कथम् क्लेशा बाधन्ते हरिसंश्रयम् यः पृष्टो मुनिभिः प्राह धर्मान्नानाविधाञ्छुभान् नृणाम् वर्णाश्रमाणाम् च सर्वभूतहितः सदा एतत्तादिराजस्य मनोश्चरितमद्भुतम् वर्णितम् वर्णनीयस्य तदपत्योदयम् शृणु। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे द्वाविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।